अथ एकपञ्चाशः सर्गः। तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः वाक्यमर्थवदव्यग्रह तमुवाच दशाननम्। अहं सुग्रीवसन्देशात् इह प्राप्तस्तवालयं राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्। भ्रातुश्रृणु समादेशं सुग्रीवस्य महात्मनः धर्मार्थोपहितं वाक्यं इह चामुत्र च क्षमं। राजा दशरथो नाम रथकुञ्जरवाजिमान् पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनं लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः तस्य भार्या वने नष्टा सीता पतिमनूरता वैदेहस्य सुता राज्ञो जनकस्य महात्मनः समार्गमाणस्तां देवीं राजपुत्रः सहानुजः ऋष्यमोकमनुप्राप्तः सुग्रीवेण समागतः तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणं सुग्रीवस्यापि रामेण हरिराज्यं निवेदितं। ततस्तेन मृधे हत्वा राजपुत्रेण वालिनं सुग्रीवः स्थापितो राज्ये हरिवृक्षाणां गणेश्वरः त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः रामेण निहतः सङ्ख्ये शिरेणैकेन वानरः सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः तां हरीणां सहस्राणि शतानि नियुतानि च दिक्षु सर्वासु मार्गन्ते ह्यथश्चोपरि चाम्बरे वैरतेयसमाः केचित् केचित्तत्रानिलोपमाः असङ्गगतयः शेखरा हरिवीरा महाबलाः। अहं तु हनुमान्नाम मारुतस्यौरसस्वतः सीतायास्तु कृते तोर्णं शतयोजनमायतं समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः। भ्रमता च मया दृष्टा गृहे ते जनकात्मजा तद्भवान् दृष्टधर्मार्थः तपः कृतपरिग्रहः परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः। कस्य लक्ष्मणमुक्तानां रामकोपानुवर्तिनां शराणामग्रतस्थातुं शक्तो देवासुरेष्वपि न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्। तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च मन्यस्व नरदेवाय जानकी प्रतिदीयतां दृष्टा हेयं मया देवी लब्धं यदिह दुर्लभम्। उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः लक्षितेयं मया सीता तथा शोकपरायणा गृह्ययां नाभिजानासि पञ्चास्यामिव पन्नगीं। नेयं जरयितुं शक्या सासुरैरमरैरपि विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौचसा तपःसन्तापलब्धस्ते योऽयं धर्मपरिग्रहः न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः। अवध्यतां तपोभिर्यां भवान् समनुपश्यति आत्मनः सासुरैर्देवैः हेतुस्तत्राप्ययं महान्। सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः न दानवो न गन्धर्वो न यक्षो न च पन्नगः मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः। तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि न तु धर्मोपसंहारम् अधर्मफलसंहितं। तदेव फलमन्वेति धर्मश्चाधर्मनाशनः प्राप्तं धर्मफलं कृत्स्नं भवता नात्र संशयः। फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे। जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा रामसुग्रीवसख्यञ्च बुद्ध्यस्व हितमात्मनः खामं खल्वहमप्येकः सवाजिरथकुञ्जरां। लंकां नाशयितुं शक्तः तस्यैष तु न निश्चयः रामेण हि प्रतिज्ञातं हरिवृक्षगणसन्निधौ उत्सादनममित्राणां सीतायैस्तु प्रहर्षिता अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः न सुखं प्राप्नुयादन्यः किं पुनः त्वद्विधो जनः यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीं तदलङ्कालपाशेन सीताविग्रहरूपिणा स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यतां सीतायास्तेजसादग्धां रामकोपप्रदीपितां दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकां स्वानिमित्राणि मन्त्रिंश्च ज्ञातीन् भ्रातॄन् सुतान् हितान् भोगान् दारांश्च लङ्काञ्च मा विनाशमुपानय सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम रामदासस्य दूतस्य वानरस्य विशेषतः सर्वान् लोकान् सुसंहृत्य स्वभूतान् सचराचरान् पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः देवासुरनरेन्द्रेषु यक्षरक्षो गणेषु च विद्याधरेषु सर्वेषु गन्धर्वेषोरगेषु च सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमं सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमीदृशं रामस्य राजसिंहस्य दुर्लभं तव जीवितं देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्व विद्याधर नागयक्षाः रामस्य लोकत्रय नायकस्य स्थातुं न शक्ताः समरेषु सर्वे ब्रह्मा स्वयंभूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ससौष्ठवोपेतमदीनवादिनः कपेर्निशम्या प्रतिमोप्रियं वचः दशाननः कोपविवृत्तलोचनः समाधिशत्तस्य वधं महाकपेः इत्यार्षे श्रीमद् रामायणे वाल्मीकीयादिकाव्ये सुन्दरकाण्डे 51 सर्गः अथ 52 सर्गः तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः वधे तस्य समाज्ञप्ते रावणेन दुरात्मना निवेदितवतो दौत्यं नानुमेने विभीषणः तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितं विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः निश्चितार्थस्ततः साम्ना आपूज्य शत्रुजिदग्रजम् उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीदमद्वाक्यमिदं शृणुष्व वधन्न कुर्वन्ति परावरज्ञाः दूतस्य सन्तो वसुधाधिपेन्द्राः राजधर्मविरुद्धञ्च लोकवृत्तेश्च गर्हितं तव चासदृशं वेर कपेरस्य प्रमापणं धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः परावरज्ञो भूतानां त्वमेव परमार्थवित् गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः ततःशास्त्रविपश्चित्वं श्रम एव हि केवलं तस्मात् प्रसीदशत्रुघ्न राक्षसेन्द्र दुरासद युक्तायुक्तं विनिश्चित्य दोतदण्डो विधीयतां विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः रोषेण महता विष्टो वाक्यमुत्तरमब्रवीत् न पापानां वधे पापं विद्यते शत्रुशोधन तस्मादेनं वधिष्यामि वानरं पापकारिणम् अधर्ममूलं बहुदोषयुक्तम् अनार्यतुष्टं वचनं निशम्य उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेन अप्रियमप्रमेयं न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य ननश्रुतोऽपि कथञ्च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि विद्येत कश्चित् तव वीरतुल्यः त्वं ह्युत्तमः सर्वसुरासुराणां पराक्रमोत्साहमनस्विनाञ्च सुरासुराणामपि दुर्जयेन त्वया प्रमेयेण सुरेन्द्रसङ्घाः जिताश्च युद्धेष्वसकृन्नरेन्द्राः यत्थं व्यधस्यामरदैत्यशत्रोः सूरस्य वीरस्य तवाजितस्य कुर्वन्ति वीरा मनसाप्यलीकं प्राणैर्विमुक्ता न तु भोः पुराते न चाप्यस्य कपेर्घाते कञ्चित्पश्याम्यहं गुणं तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः साधुर्वा यदि वा साधुः परैरेष समर्पितः ब्रुवन् परार्थं परवान् न दूतो वधमर्हति अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरं यः यः पुनरागच्छेत् परं पारं महोदधेः तस्मान्नास्य वधे यत्नः कार्यः परपुरञ्जय भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति अस्मिन् विनष्टे न हि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ युद्धाय युद्धप्रियदुर्विनीतौ उद्योजये दीर्घपथावरुद्धौ पराक्रमोत्साहमनस्विनाञ्च सुरासुराणामपि दुर्जयेन त्वया मनोनन्दननैरृतानां युद्धाय तीर्णाशयितुं न युक्ता हिताश्च सोराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतोऽभियान्तु तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टं जग्राहबुद्ध्या सुरलोकशत्रुः महाबलो राक्षसराजमुख्यः इत्यार्षे श्रीमद् रामायणे वाल्मीकीयादिकाव्यसुन्दरकाण्डे द्विपञ्चाशत् सर्गः अथ त्रिपञ्चाशत् सर्गः तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् सम्यगुक्तं हि भवता दूतवध्या विगर्हिता अवश्यन्तु वधादन्यः क्रियतामस्य निग्रहः कपीनां केललाङ्गूलम् इष्टं भवति भूषणं तदस्य दीप्यतां शेखरं तेन दग्धेन गच्छतु ततः पश्यन्त्वमं देनम् अङ्गवैरूप्यकर्षितं समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरं लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्षिताः वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः शुष्कमिन्धनमासाद्य वनेष्विवहुतासनः तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन् लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् रोषामर्षपरीतात्मा बालसूर्यसमाननः लाङ्गूलं सम्प्रदीप्तन्तु द्रष्टुं तस्य हनूमतः सहस्त्रीबालवृद्धाश्च जग्मुः प्रेता निशाचराः स भूयः सङ्गतैः क्रोरैः राक्षसैः हरिसत्तमः निबद्धः कृतवान् वीरः तत्कालसदृशीं मतिं कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात् बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता सर्वेषामेव पर्याप्तो राक्षसानामहं युधि किन्तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशं लंका चारयितव्या वै पुनरेव भवेदिति रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः अवश्यमेव द्रष्टव्या मया लङ्कानिचाक्षये कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च पेडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसश्रमः ततस्ते संवृताकारं सत्त्ववन्तं महाकपिं परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरं शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः राक्षसाः क्रोरकर्माणः चारयन्ति स्मतां पुरीं अन्वीयमानो रक्षोभिः ययौ सुखमरिन्दमः हनुमांश्चारयामास राक्षसानां महापुरीम् अथापश्यद्विमानानि विचित्राणि महाकपिः संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् वीथीश्च गृहसंवादाः कपिशृङ्गाटकानि च तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान् गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः चत्वरेषु चतुष्केषु राजमार्गे तथैव च घोषयन्ति कपिं सर्वे चारयित्येव राक्षसाः स्त्रीबालवृद्धा निर्जग्मुः तत्र तत्र कुतूहलात् तं प्रदीपितलाङ्गोलं हनुमन्तं दिदृक्षवः दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियं यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः लाङ्गूलेन प्रदीप्तेन स एष परिणीयते श्रुत्वा तद्वचनं क्रोरम् आत्मापहरणोपमं वैदेही शोकसन्तप्ता हुताशनमुपागमत् मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः उपतस्थे विशालाक्षी प्रयता हव्यवाहनं यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः यदि चास्त्वेकपत्नीत्वं सीतो भव हनूमतः यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः यदि चास्त्येकपत्नीत्वं सीतो भव हनूमतः यदि किञ्चिदनुक्रोशः तस्य मय्यस्ति धीमतः यदि वा भाग्यशेषो मे सीतो भव हनूमतः यदि मां वृत्तसम्पन्नां तत्समागमलालसां स विजानाति धर्मात्मा सीतो भव हनूमतः यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः अस्माद्दुःखाम्बुसंरोधात् सीतो भव हनूमतः ततस्तेक्ष्णाच्चिरव्यग्रह प्रदक्षिणशिखोनलः जज्ज्वालमृगशापाक्ष्याः शंसन्निव शिवङ्कपेः हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः भवौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः दह्यमाने च लाङ्गूले चिन्तयामास वानरः प्रदीप्तोऽग्निरयं कस्मात् न मां दहति सर्वतः दृश्यते च महाज्वालः करोति न च मे रुजं शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः अथवा तदिदं व्यक्तं यदृष्टं प्लवता मया रामप्रभावादाश्चर्यं पर्वतःसरितां पतौ यदि तावत्समुद्रस्य मैनाकस्य च धीमतः रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति सेतायाश्चाम्बुसंस्येन तेजसा राघवस्य च पितुश्च मम सख्येन न मां दहति पावकः भूयः सचिन्तयामास मुहूर्तं कपिकुञ्जरः कथमस्मद्व्यधस्येह बन्धनं राक्षसाधमैः प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे ततश्छित्वा च तान् पाशान् वेगवान् वै महाकपिः उत्पपाताथ वेगेन ननाद च महाकपिः पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् विभक्तरक्षः सम्बाधम् आससादानिलात्मजः स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ह्रस्वताम् परमाम् प्राप्तो बन्धनान्यवशातयत् विमुक्तश्चाभवत् श्रीमान् पुनः पर्वतसन्निभः वेक्षमाणश्च ददृशे परिघम् त्वरणाश्रितम् सतम् गृह्य महाबाहुः कालायस परिष्कृतम् रक्षिणस्तान् पुनः सर्वान् सोदयामास मारुतिः सतान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् प्रदीप्तलाङ्गोलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली। इत्यार्षे श्रीमद् रामायणे वाल्मीकीयादिकाव्यसुन्दरकाण्डे त्रिपञ्चाशत् सर्गः। अथ चतुःपञ्चाशत् सर्गः। वीक्षमाणः ततो लङ्काम् कपिः कृतमनोरथः वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् किन्नु खल्ववशिष्टम् मे कर्तव्यमिह साम्प्रतम् यदेषाम् रक्षसाम् भूयः सन्तापजननम् भवेत्। वनम् तावत् प्रमथितम् प्रकृष्टा राक्षसा हताः बलैकदेशः क्षपितः शेषम् दुर्गविनाशनम् दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलश्रमः। यो ह्ययम् मम लाङ्गूले दीप्यते हव्यवाहनः अस्य सन्तर्पणम् न्याय्यम् कर्तुमेभिर्गृहोत्तमैः। ततः प्रदीप्तलाङ्गूलः स विद्युदिवतो यदः भवनाग्रेषु लङ्काया विचचार महाकपिः। गृहाद्गृहम् राक्षसानाम् उद्यानानि च वानरः वेक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचारसः। अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् अग्निम् तत्र स निक्षिप्य श्यसनेन समो बली। ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् मुमोच हनुमानग्निम् कालानलशिखोपमम् वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। सुखस्य च महातेजाः सारणस्य च धीमतः तथा चेन्द्रजितो वेश्म ददाह हर्योथपः। जम्बुमालेः सुमालेश्च ददाह भवनन्ततः रश्मिकेतोश्च भवनम् सूर्यशत्रोस्तथैव च ह्रस्वकर्णस्य दंष्ट्रस्य रोमशिष्य च रक्षसः। युद्धोन्मत्तस्य मत्तस्य ध्वजग्रेवस्य रक्षसः। विद्युज्जह्वस्य घोरस्य तथा हस्तिमुखस्य च करालस्य पिशाचस्य सोणिताक्षस्य चैव हि कुम्भकर्णस्य भवनम् मकराक्षस्य चैव हि। यज्ञशत्रोश्च भवनम् ब्रह्मशत्रोस्तथैव च नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः। वर्जयित्वा महातेज विभीषणगृहम् प्रति क्रममाणः क्रमेणैव ददाह स महाकपिः। तेषु तेषु महार्हेषु भवनेषु महायशाः गृहेषु वृद्धिमतां वृद्धिम् ददाह स महाकपिः। सर्वेषाम् समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ननादहनुमान् वीरो युगान्तजलदो यथा श्वसनेन च संयोगात् अतिवेगो महाबलः। कालाग्निरवज्ज्वाल प्रावर्धत हुताशनः प्रदीप्तमग्निम् पवनः तेषु वेश्वस्वचालयत् अभूच्छ्यसनसंयोगात् अतिवेगो हुताशनः। तानि काञ्चनजालानि मुक्तामणिमयानि च भवनान्यवसीर्यन्त रत्नवन्ति महान्ति च तानि भग्नविमानानि निपेतुर्वसुधातले भवनानीव सिद्धानाम् अम्बरात् पुञ्जसंक्षये संजज्ञे तुमुलशब्दो राक्षसानां प्रधावतां स्वगृहस्य परित्राणे भग्नोत्साहोर्जितश्रियां नोनमेषोऽग्निरायातः कपिरूपेण इति क्रन्दन्त्यः सहसा पेतुः स्तनन्धयधराः स्त्रियः काश्चिदग्निपरीतेभ्यो हर्मेभ्यो मुक्तमूर्धजाः पतन्त्यो रेजिरेभ्रेभ्यः सौदामिञ्ज इवाम्बरात् वज्रविद्रुमवैदूर्य मुक्ता रजतसंहतान् विचित्रान् भवनान् धातून् स्यन्दमानान् ददर्शसः नाग्निस्तृप्यति काष्ठानां तृणानां हर्योथपः नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा क्वचित् किंसुकसङ्काशाः क्वचित् शाल्मलिसन्निभाः क्वचित् कुङ्कुमसङ्काशाः शिखावह्नेः चकासिरे हनूमता वेगवता वानरेण महात्मना लङ्कापुरं प्रदग्धं तत् रुद्रेण त्रिपुरं यथा ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः प्रसार्य चोडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः युगान्तकालानलतुल्यवेगः समारुतोऽग्निर्ववृधे दिवस्पृक् विधूमरश्मिर्भवनेषु सत्तो रक्षस्य वीराज्यसमर्पिताच्चिः आदित्यकोटीसदृशस्सु तेजा लङ्कां समस्तां परिवार्य तिष्ठन् शब्दैरनेकैरशनिप्ररूढैः भ्यन्दन्निवाण्डं प्रबभौ महाग्निः तत्राम्बरादग्निरतिप्रवृद्धो रोक्षप्रभः किं सुकपुष्पचूडः निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेभ्राः वज्रीमहेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणो निलो वा रुद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य यहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः किं वैष्णवं वा कपिरूपमेत्य रक्षो विनाशाय परं सुतेजः अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे सप्राणिसङ्घां स्वगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ततस्तु लङ्का सहसा प्रदग्धा स राक्षसा साश्वरथा स नागा सपक्षिसङ्घा समृगा सवृक्षा रुरोददेना तुमुलं सशब्दम् हा तात हा पुत्रककान्तमित्र हा जीवितं भोगयुतं सुपुण्यं रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा हनूमतः क्रोधबलाभिभूता बभूवशापोपहतेव लङ्का ससम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्कितां ददर्श लङ्कां हनुमान् महामना स्वयम्भुकोपोपहतामिवावनिं भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे दग्ध्वा पुरीन्तां गृहरत्नमालिनीं तस्थौ हनुमान् पवनात्मजः कपिः त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांसुमाली सराक्षसांस्तान् स्वबहूंश्च हत्वा वनञ्च भङ्क्त्वा बहुपादपं तत् विसृज्य रक्षो भवनेषु चाग्निं जगामरामं मनसा महात्मा ततस्तुतं वानरवीरमुख्यं महाबलं मारुततुल्यवेगं महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे भङ्क्त्वा वनं महातेज हत्वा रक्षांसि संयुगे दग्ध्वा लङ्कापुरीं रम्यां रराजसमहाकपिः तत्र देवाः गन्धर्वाः सिद्धाश्च परमर्षयः दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमङ्गताः तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिं कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्र सुः देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीयादिकाव्यसुन्दरकाण्डे चतुःपञ्चाशत् अथ पञ्चपञ्चाशत् सर्गः लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः निर्वापयामास तदा समुद्रे हरिसत्तमः सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः तस्याभूत् स्वमहांस्त्रासः कुत्सा चात्मन्यजायत लङ्कां प्रदहता कर्म किंसित् कृतमिदं मया धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितं निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भस क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्यात् गुरूनपि क्रुद्धः पुरुषया वाचा नरः साधूनधिक्षिपेत् वाच्या वाच्यं प्रकुपितो न विजानाति कर्हिचित् नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् यः समुत्पतितं क्रोधं क्षमयैव निरस्यति यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् अचिन्तयत्वा तां सेताम् अग्निदं स्वामिघातुकं यदि दग्धात्वियं लङ्का नोनमार्यापि जानकी दग्धातेन मया भर्तुः हतं कार्यमजानता यदर्थमयमारम्भः तत्कार्यमवसादितं मया हि दहता लङ्कां न सीता परिरक्षिता ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी यदि तद्विहतं कार्यं मम प्रज्ञा विपर्ययात् यहैव प्राणसंन्यासो ममापि हृद्य रोचते किमग्रौ निपतां यद्य आहोऽस्वि बडवामुखे शरीरमिह सत्त्वानां दद्मि सागरवासिनां कथं हि जेवता शक्यो मया द्रष्टुं हरीश्वरः तौ वा पुरुषशार्दोलौ कार्यसर्वस्वघातिना मया खलु तदेवेदं रोषदोषात् प्रदर्शितं प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितं धिगस्तु राजसंभावम् अनीशमनवस्थितं ईश्वरेणापि यद्रागात् मया सीता न रक्षिता विनष्टायां तु सीतायां तावुभौ विनशिष्यतः तयोर्विनाशे सुग्रीवः स बन्धुर्विनशिष्यति एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः धर्मात्मा सह शत्रुघ्नः कथं शिक्ष्यति जीवितुम् इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयं भविष्यन्ति प्रजाः सर्वा शोकसन्तापपीडिताः तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत् अथ वाचारु सर्वाङ्गी रक्षिता स्वेन तेजसा
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते नहि धर्मात्मनस्तस्य भार्यामित तेजसः स्वचारित्राभिगुप्तां ताम् स्प्रष्टुमर्हति पावकः नूनं रामप्रभावेण वैदेह्यास्तु कृतेन च यन्मां दहनकर्मायं नादहत् हव्यवाहनः त्रयाणां भरतादीनां भ्रातॄणां देवता च या रामस्य च मनःकान्ता सा कथं विनशिष्यति यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः न मे दहति लाङ्गोलं कथमार्यां प्रधक्ष्यति पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा हिरण्यनाभस्य गिरेः जलमध्ये प्रदर्शनं तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि अपि च निर्दहेदग्निं नतामग्निः प्रधक्ष्यति स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहं शुश्र्याव हनुमान् वाक्यं चरणानां महात्मनाम् अहो खलु कृतं कर्म दुष्करं हि हनूमता अग्निं विसृजताभीक्ष्णं भेमं राक्षसवेस्मिनि प्रपलायितरक्षस्त्रीबालवृद्धसमाकुला जनकोलाहलाध्वाता क्रन्दन्तीवाद्रिकन्दरे दग्धेयन्नगरी सर्वा साट्टप्राकारतोरणा जानकीन च दग्धेति विस्मयोद्भुत एव नः इति शुश्र्याव हनुमान् वाचन्ताममृतोपमां बभूव चास्य मनसः हर्षस्तत्कालसम्भवः स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ऋषिवाक्यैश्च हनुमान् अभवत् प्रेतमानसः ततः कपिः प्राप्तमनोरथार्थः तामक्षतां राजसुतां विदित्वा प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणायमतिञ्चकार इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्यसुन्दरकाण्डे पञ्चपञ्चाशत् सर्गः अथ षट्पञ्चाशत् सर्गः ततस्तु शिंसुपामूले जानकीं पर्युपस्थिताम् अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षतां ततस्तं प्रस्थितं सीता वेक्षमाणा पुनः पुनः भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत यदि त्वं मन्यसे तात वसैकाहमिहानघः क्वचित् सुसंवृते देशे विश्रान्तः स्वो गमिष्यसि मम चैवाल्पभाग्यायाः सान्निध्यात् तव वानर शोकस्याप्रमेयस्य मुहूर्तं स्यादपि क्षयः गते हि हरिशार्दूल पुनः सम्प्राप्तये त्वयि प्राणेष्वपि न विश्वासो मम वानरपुङ्गव अदर्शनञ्च ते वीर भूयो मां धारयिष्यति दुःखात् दुःखतरं प्राप्तां दुर्मनःशोककर्षिताम् अयञ्च वीरसन्देहः तिष्ठतेव ममाग्रतः सुमहत्सु सहायेषु हरिरुक्षेषु महाबलः कथं नु खलु दुष्पारं सन्तरिष्यन्ति सागरं तानि हरिरुक्षसैन्यानि तौवा नरवरात्मजौ त्रयाणामेव भूतानां सागरस्यापि लङ्घने शक्ति स्याद्वैरतेयस्य तव वा मारुतस्य वा तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे किं पश्यसि समाधानं त्वं हि कार्यविशारदः काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः परवेरघ्न यशस्यस्ते फलोदयः शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः मां नयेद्यदि काकुत्सः तत्तस्य सदृशं भवेत् तद्यथा तस्य विक्रान्तम् अनुरूपं महात्मनः भवत्याः वसोरस्य तथा त्वमुपपादय तदर्थोपहितं वाक्यं प्रसृतं हेतुसंहितं निशम्य हनुमांस्तस्य वाक्यमुत्तरमब्रवीत् देवि हरिरुक्षसैन्यानाम् ईश्वरः प्लवताम्बरः सुग्रीवः सत्त्वसम्पन्नः तवार्थे कृतनिश्चयः सवानरसहस्राणां कोटीभिरभिसंवृतः क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः तौ च वेरौ नरवरौ सहितौ रामलक्ष्मणौ आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः सगणं राक्षसं हत्वा न चिरात् रघुनन्दनः त्वामादाय वरारोहे स्वां पुरीं प्रतियास्यति समास्यसि हि भद्रन्ते भवत्वं कालकाङ्क्षिणी क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे निहते राक्षसेन्द्रे च स्वपुत्रामात्यबान्धवे त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी क्षिप्रमेष्यति काकुत्सो हरिरुक्ष प्रवरैरुरतः यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति एवमास्यास्य वैदेहीं हनुमान् मारुतात्मजः गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् राक्षसान् प्रवरान् हत्वा नाम विश्राव्य चात्मनः समास्यास्य च वैदेहीं दर्शयित्वा परं बलं नगरीमाकुलां कृत्वा वञ्चयित्वा च रावणं दर्शयित्वा बलं घोरं वैदेहीमभिवाद्य च प्रतिगन्तुं मनश्चक्रे पुनर्मध्येन सागरं ततः स कपिशार्दूलः स्वामी सन्दर्शनोत्सुकः आरुरोह गिरिश्रेष्ठं अरिष्टं अरिमर्दनः तुङ्गपद्मकतुष्टाभिः नीलाभिर्वनराजिभिः सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः उन्मिषन्तमिवोद्धोतैः लोचनैरिव धातुभिः तोयौघनिःस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् प्रगीतमिव विस्पष्टैः नानाप्रस्रवणस्वनैः देवदारुभिरत्युच्चैः ऊर्ध्वबाहुमिव स्थितम् प्रपातजलनिर्घोषैः प्राकृष्टमिव सर्वतः वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः वेणुभिर्मारुतोद्धोतैः कूजन्तमिव कीचकैः निःश्यसन्तमिवामर्षात् घोरैराशीविषोत्तमैः नीहारकृतगम्भीरैः ध्यायन्तमिव गह्वरैः मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः कोटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः सालतालास्य कर्णैश्च वंशैश्च बहुभिरुरतं लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतं नानामृगगणाकीर्णं धातुनिष्यन्दभूषितं बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटं महर्षियक्षगन्धर्वकिन्नरोरगसेवितं लतापादपसङ्घातं सिंहाध्युषितकन्दरं व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलद्रुमं तमारुरोह हनुमान् पर्वतं पवनात्मजः रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः तेन पादतलाक्रान्ता रम्येषु गिरिशानुषु सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ददर्श सागरं भीमं मीनोरगनिषेवितं समारुत इवाकाशं मारुतस्यात्मसम्भवः प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशं स तदा पीडितस्तेन कपिना पर्वतोत्तमः रराश सहतैर्भूतैः प्रविशन् वसुधातलं कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः निपेतुर्भूतले भग्नाः शक्रायुध हता इव कन्दरान्तरसंस्थानां पीडितानां महूजसां सिंहानां निनदो भीमो नभो भिन्दं सशुश्रुवे स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः स च भूमिधरः श्रीमान् बलिना तेन पीडितः सवृक्षशिखरोदग्रः प्रविवेशरसातलं दशयोजनविस्तारः त्रिंशद्योजनमुच्छ्रितः धरण्यां समतां यातः स बभूव धराधरः स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवं கல்லோலாஸ்பாலவேலாந்தம் உத்பபாதனபோ ஹரிஹி இத்யாரிஷே ஸ்ரீமத் ராமாயணே வால்மீகி ஏ ஆதிகாவிய சுந்தரகாண்டே ஷட் பஞ்சாசஸ் சர்கஹ அத சப்த பஞ்சாசஸ் சர்கஹ ஆப்ளுத்ய ச மஹாவேகஹ பக்ஷவானிவ பர்வதஹ புஜங்க யக்ஷ கந்தர்வ பிரபுத்த கமலோத்பலம் சச்சந்திரகுமுதம் ரம்யம் சார்க்ககாரண்டவம் சுபம் திஷ்யஸ்ரவண காதம்பம் அப்ரசைவாலசாத்வலம் புனர்வசு மகாமேனம் லோஹிதாங்க மகாகிரகம் ஐராவத மகாத்வேபம் ஸ்வாதி ஹம்சவிலோலிதம் வாதசங்காத ஜாதோர்மி சந்திராம்சு சிசிராம்புமத் ஹனுமான் மாருதகதி மகாநௌரிவ சாகரம் அபாரம பரிஸ்ராந்த புப்ளுவே ககனார்ணவம் கிரசமான இவாகாசம் தாராதிபமிவோல்லிகன் ஹரன்னிவசநக்ஷத்ரம் ககனம் சார்க்கமண்டலம் மாருதஸ்யாத்மஜஸ்ரீமான் கபிர்வ்யோமசரோ மகான் ஹனுமான் மேகஜாலானி விகரஷன்னிவ கச்சதி பாண்டுராருணவர்ணானி நீலமாஞ்சிஷ்டகானி ச ஹரிதாருணவர்ணானி மகாப்ராணி ச காசிரே பிரவிசன்னப்ரஜாலானி நிஷ்பதம்ஸ்ச புனப்புன பிரச்சன்னஸ்ச பிரகாசிஸ்ச சந்திரமாயிவ லக்ஷ்யதே விவிதாப்ரகனாபன்னகோச்சரோ தவளாம்பரஹ த்ருஸ்யாத்ருஸ்யதனுர்வேரஹ ததா சந்திராயதேம்பரே தார்க்ஷ்யாயமானோ ககனே பபாஷே வாயுநந்தனஹ தாரயன் மேகவ்ருந்தானி நிஷ்பதம்ஸ்ச புனப்புன நதன்நாதேன மகதா மேகஸ்வன மகாஸ்வனஹ பிரவரான் ராட்சசான் ஹத்வா நாம விஸ்ராவ்யச்சாத்மனஹ ஆகுலாம் நகரீம் க்ருத்வா வ்யதயத்வா ச ராவணம் அர்தயத்வா பலங்கோரம் வைதேஹீமபிவாத்ய ச ஆஜகாம மகாதேஜாஹ புனர்மத்யேன சாகரம் பர்வதேந்திரம் சுனாபஞ்ச சமுபஸ்பிருஷ்ய வீரியவான் ஜ்யாமுக்தயவ நாராசோ மகாவேகோப்யுபாகதஹ சகிஞ்சிதனு சம்ப்ராப்தஹ சமாலோக்ய மகாகிரிம் மகேந்திர மேக சங்காசம் நநாத ஹரிபுங்கவஹ ச பூரயாமாச கபிஹி திசோ தச சமந்ததஹ நதன்நாதேன மகதா மேகஸ்வன மகாஸ்வனஹ சதம் தேசமனுப்ராப்தஹ சுஹ்ருத்தரிசன லாலசஹ நநாத ஹரிசார்தூலோ லாங்கோலம் சாப்பியகம்பயத் தஸ்ய நானத்யமானஸ்ய சுபர்ணசரிதே பதி ஃபலதீவாஸ்ய கோஷேண ககனம் சார்க்கமண்டலம் ஏது தத்ரோத்தரே தீரே சமுத்ரஸ்ய மகாபலாஹ பூர்வம் சம்விஷ்டிதாஸ்ஸுரா வாயுபுத்ரம் திதுருக்ஷவஹ மஹதோ வாயுநுன்னஸ்ய தோயதஸ்யேவ கர்ஜிதம் சுஸ்ருவுஸ்தே ததாகோஷம் ஊர்வேகம் ஹனுமதஹ தே தேன மனசஸ் சர்வே சுஸ்ருவுஹு காணநௌகசஹ வானரேந்திரஸ்ய நிர்கோஷம் பர்ஜன்ய நினதோபமம் நிசம்ய நததோ நாதம் வானராஸ்தே சமந்ததஹ பபூவுருத்சுகாஸ் சர்வே சுஹ்ருத்தரிசனகாங்க்ஷிணஹ ஜாம்பவான் ச ஹரிஸ்ரேஷ்டஹ ப்ரீதி சம்ஹ்ருஷ்டமானசஹ உபாமந்த்ர்ய ஹரீன் சர்வான் இதம் வச்சனமப்ரவீத் சர்வதா க்ருத கார்யோஸௌ ஹனுமான் நாத்ர சம்சயஹ நஹ்யஸ்யாக்ருத கார்யஸ்ய நாத ஏவம் விதோ பவேத் தஸ்ய பாஹூருவேகஞ்ச நிநாதஞ்ச மஹாத்மனஹ நிசம்ய ஹரயோ ஹ்ருஷ்டாஹ சமுத்பேதுஸ்ததஸ்ததஹ தே நகாக்ராண்ணகாக்ராணி சிகராச்சிகராணி ச பிரஹுஷ்டாஸ் சமபத்யந்த ஹனுமந்தந்திதுருக்ஷவஹ தே பிரேதாஹ பாதபாக்ரேஷு க்ருஹ்யசேகாஸ் சுனிஷ்டிதாஹ வாசாம்சேவ பிரசேகாஸ்ச சமாவித்யந்த வானராஹ கிரிகஹ்வர சம்லீனோ யதா கர்ஜதி மாருதஹ ஏவஞ்சகர்ஜ பலவான் ஹனுமான் மாருதாத்மஜஹ தமப்ரகன சங்காசம் ஆபதந்தம் மகாகபிம் த்ருஷ்ட்வா தே வானரா சர்வே தஸ்துஹு பிராஞ்சலயஸ்ததா ததஸ்து வேகமாம்ஸ்தஸ்ய गिरेर्गिरिनिभक्कपिः नेपपातमहेन्द्रस्य शिखरे पादपाकुले हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिध्यरे छिन्नपक्ष इवाकाशात् पपात धरणीधरः ततस्ते प्रेतमनसः सर्वे वानरपुङ्गवाः हनुमन्तं महात्मानं परिवार्योपतस्थि परिवार्य च ते सर्वे परां प्रीतिमुपागताः प्रहृष्टवदनाः सर्वे तम रोगमुपागतम् उपायनानि चादाय मूलानि च फलानि च प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजं विनेदुर्मुदिताः केचित् केचित् किल किलांस्तथा हृष्टाः पादपशेखाश्च आनिन्युर्वानरर्षभाः हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा कुमारमङ्गदं चैव सोवन्दतमहाकपिः सताभ्याम् पूजितः पूज्यः कपिभिश्च प्रसादितः दृष्टः सीतेति विक्रान्तः सङ्क्षेपेण न्यवेदयत् निशसादच हस्तेन गृहीत्वा वालिनः सुतम् रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा हनुमानब्रवीत् पृष्टः तदा तान् वानरर्षभान् अशोकवनिका संस्था दृष्टा सा जनकात्मजा रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता एकवेणीधरा बाला रामदर्शनलालसा उपवासपरिश्रान्ता जटिला मलिना कृशा ततो दृष्टेति वचनम् महार्थम् अमृतोपमम् निशम्यमारुते सर्वे मुदिताः वानराभवन् क्षेळन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः अञ्चिताय तदीर्घाणि लाङ्गूलानि प्रविव्यधुः अपरे च हनूमन्तम् वानरा वारणोपमम् आपृत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः उक्तवाक्यम् हनूमन्तम् अङ्गतस्तमथाब्रवीत् सर्वेषाम् हरिवीराणाम् मध्ये वचनमुत्तमम् सत्त्वे वीर्ये नते कश्चित् समो वानरविद्यते यदवपृत्य विस्तीर्णम् सागरम् पुनरागतः जीवितस्य प्रदाता नः त्वमेको वानरोत्तम त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेणः अहो स्वामिनि ते भक्तिः अहो वीर्यमहो धृतिः दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी दिष्ट्या त्यक्ष्यति काकुत्सः शोकम् सीतावियोगजम् ततोऽङ्गदम् हनूमन्तम् जाम्बवन्तम् च वानराः परिवार्य प्रमुदिता भेजिरे विपुलाशिलाः उपविष्टा गिरेस्तस्य शिलासु विपुलासु ते श्रोतुकामा समुद्रस्य लङ्घनम् वानरोत्तमाः दर्शनम् चापि लङ्कायाः सीताय रावणस्य च तस्थु प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः उपास्यमानो विबुधैः दिवि देवपतिर्यथा हनूमता कीर्तिमता यशस्विना तथाङ्गदेन अङ्गदनद्धबाहुना मुदा तदाध्यासितमुन्नतम् महत् महीधराग्रम् ज्वलितम् श्रियाभवत्। इत्यार्षे श्रीमद् रामायणे वाल्मीकीयादिकाव्ये सुन्दरकाण्डे सप्तपञ्चाशत् सर्गः। अथ अष्टपञ्चाशत् सर्गः। ततस्तस्य गिरेशृङ्गे महेन्द्रस्य महाबलाः हनुमत्प्रमुखाः प्रीतिम् हरयो जग्मुरुत्तमाम् प्रीतिमत्सोपविष्टेषु वानरेषु महात्मसु तम् ततः प्रीतिसंहृष्टः प्रीतिमन्तम् महाकपिम् जाम्बवान् कार्यवृत्तान्तम् अपृच्छदनिलात्मजम् कथम् दृष्टा त्वया देवी कथम् वा तत्र वर्तते तस्याम् वा स कथम् वृत्तः क्रोरकर्मा दशाननः तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वम् महाकपे सम्मार्गिता कथम् देवी किञ्चसा प्रत्यभाषत श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् रक्षितव्यञ्च यत्तत्र तद्भवान् व्याकरोतु नः स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत प्रत्यक्षमेव भवताम् महेन्द्राग्रात् खमाप्लुतः वदधेर्दक्षिणम् पारम् काङ्क्षमाणः समाहितः गच्छतश्च हि मे घोरम् विघ्नरूपमिवाभवत् काञ्चनम् शिखरम् दिव्यम् पश्यामि सुमनोहरम् स्थितम् पन्थानमावृत्य मेने विघ्नम् च तम् नगम् उपसङ्गम्यतम् दिव्यम् काञ्चनम् नगसत्तमम् कृता मे मनसा बुद्धिः भेत्तव्योऽयम् मयेति च प्रहतम् च मया तस्य लाङ्गूलेन महागिरेः शिखरम् सूर्यसङ्काशम् व्यसीर्यत सहस्रधा व्यवसायम् च तम् बुद्ध्वा सहोवाच महागिरिः पुत्रेति मधुराम् वाणीम् मनः प्रह्लादयन्निव पितृव्यम् चापि माम् विद्धि सखायम् मातरिस्यनः मैनाकमिति विख्यातम् निवसन्तम् महोदधौ पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः छन्दतः पृथिवीम् चेरुः बाधमानाः समन्ततः श्रुत्वा नगानाम् चरितम् महेन्द्रः पाकशासनः चिच्छेद भगवान् पक्षान् वज्रेणैषाम् सहस्रशः अहम् तु मोक्षितस्तस्मात् तव पित्रा महात्मना मारुतेन तदावत्स प्रक्षिप्तोऽस्मि महार्णवे रामस्य च मया साह्ये वर्तितव्यमरिन्दम रामो धर्मभृताम् श्रेष्ठो महेन्द्रसमविक्रमः एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः कार्यमावेद्य तु गिरेः उद्यतम् च मनो मम तेन चाहमनुज्ञातो मैनाकेन महात्मना स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता शरीरेण महाशैलः शैलेन च महोदधौ उत्तमम् जवमास्थाय शेषम् पन्थानमास्थितः ततोऽहम् सुचिरम् कालम् वेगेनाभ्यगमम् पथि ततः पश्याम्यहम् देवीम् सुरसाम् नागमातरम् समुद्रमध्ये सा देवी वचनम् मामभाषत मम भक्षः प्रदिष्टस्त्वम् अमरैः हरिसत्तम अतस्त्वाम् भक्षयिष्यामि विहितस्त्वम् चिरस्य मे एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः विवर्णवदनो भूत्वा वाक्यम् चेदमुदीरयम् रामो दासिरथि श्रीमान् प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः तस्य सीताहृता भार्या रावणेन दुरात्मना तस्याः सकाशम् दूतोऽहम् गमिष्ये रामशासनात् कर्तुमर्हसि रामस्य साहाय्यम् विषये सति अथवा मैथिलीम् दृष्ट्वा रामम् चाक्लिष्टकारिणम् आगमिष्यामि ते वक्त्रम् सत्यम् प्रतिशृणोमि ते एवमुक्ता मया सा तु सुरसा कामरूपिणी अब्रवीन्नातिवर्तेत कश्चिदेशवरो मम एवमुक्तः सुरसया दशयोजनमायतः ततोऽर्धगुणविस्तारो बभूवाहम् क्षणेन तु मत्प्रमाणानुरूपम् च व्यादितम् तु मुखन्तया तद्दृष्ट्वा व्यादितम् चास्यम् ह्रस्वम् ह्यकरवम् वपुः तस्मिन् मुहूर्ते च पुनः बभूवाङ्गुष्ठमात्र अभिपत्यासु तद्वक्त्रम् निर्गतोऽहम् ततक्षणात् अब्रवीत्सुरसा देवी स्वेन रूपेण माम् पुनः अर्धसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथा सुखम् समानय च वैदेहीम् राघवेण महात्मना सुखी भव महाबाहो प्रेतास्मि तव वानर ततोऽहम् साधु साध्विति सर्वभूतैः प्रशंसितः ततोऽन्तरिक्षम् विपुलम् प्लुतोऽहम् गरुडो यथा छाया मे निगृहीता च न च पश्यामि किञ्चन सोऽहम् विगतवेगस्तु दिशो दश विलोकयन् न किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः ततो मे बुद्धिरुत्पन्ना किन्नाम गमने मम ಈದೃಶ ವಿಘ್ನವುತ್ಪನ್ನೋ ರೂಪಂ ಯತ್ರ ನ ದೃಶ್ಯತೆ ಅಧೋಭಾಗೇನ ಮೇ ದೃಷ್ಟಿ ಶೋಚತ ಪಾತಿತ ಮಯ ತಥೋದ್ರಾಕ್ಷಮಹಂ ಭೇಮಾಂ ರಾಕ್ಷಸೀಂ ಸಲಿಲೇಶಯಾಂ ಪ್ರಹಸ್ಯ ಚ ಮಹಾನಾದಂ ಉಕ್ತೋಹಂ ಭೇಮಯಾತ್ತಯ ಅವಸ್ಥಿತಮಸಂಭ್ರಾಂತಂ ಇದಂ ವಾಕ್ಯಮಸೋಭನಂ ಕ್ವಾಸಿ ಗಂತ ಮಹಾಕಾಯಕ್ಷುಧಿತಾಯ ಮಮೇಪ್ಸಿತಃ ಭಕ್ಷ ಪ್ರೇಣಯ ಮೇ ದೇಹಂ ಚಿರಮಾಹಾರವರ್ಜಿತಂ ಬಾಢಮಿತ್ಯೇವ ತಾಂ ವಾಣೀಂ ಪ್ರತ್ಯಗೃಹ್ಣಾಮಹಂ ತತಃ ಆಸ್ಯ ಪ್ರಮಾಣಾದಧಿಕಂ ತಸ್ಯಃ ಕಾಯಮಪೂರಯಂ ತಸ್ಯಾಶ್ಚಾಸ್ಯಂ ಮಹದ್ಭೇಮಂ ವರ್ಧತೆ ಮಮ ಭಕ್ಷಣೇ ನಚ ಮಾಂಸಾತು ಬುಬುಧೇ ಮಮ ವಾ ನಿಕೃತಂ ಕೃತಂ ತತೋಹಂ ವಿಪುಲಂ ರೂಪಂ ಸಂಕ್ಷಿಪ್ಯ ನಿಮಿಷಾಂತರಾತ್ ತಸ್ಯಾ ಹೃದಯಮಾದಾಯ ಪ್ರಪತಾಮಿ ನಭಸ್ಥಲಂ. ಸಾ ವಿಸೃಷ್ಟಭುಜಾ ಭೇಮಾ ಪಪಾತ ಲವಣಾಂಭಸಿ ಮಯಾ ಪರ್ವತ ಸಂಕಾಶ ನಿಕೃತ್ತ ಹೃದಯಾ ಸದೀ. ಶೃಣೋಮಿ ಖಗತಾನಾಂಚ ಸಿದ್ಧಾನಾಂ ಚಾರಣೈಃ ಸಹ ರಾಕ್ಷಸೀ ಸಿಂಹಿಕಾ ಭೇಮಾ ಕ್ಷಿಪ್ರಂ ಹನುಮತಾ ಹತಾ ತಾಂ ಹತ್ವಾ ಪುನರೇವಾಹಂ ಕೃತ್ಯಮಾತ್ಯಯಿಕಂ ಸ್ಮರನ್ ಗತ್ವಾ ಚಾಹಂ ಮಹಾಧ್ವಾನಂ ಪಶ್ಯಾಮಿ ನಗಮಂಡಿತಂ ದಕ್ಷಿಣಂ ತೀರಮುದಧೇಃ ಲಂಕಾ ಯತ್ರ ಚ ಸಾ ಪುರಿ ಅಸ್ತಂ ದಿನಕರೇ ಯಾತೆ ರಕ್ಷಸಾಂ ನಿಲಯಂ ಪುರಂ ಪ್ರವಿಷ್ಟೋಹಮವಿಜ್ಞಾತೋ ರಕ್ಷೋಭಿರ್ಭೇಮವಿಕ್ರಮೈಃ ತತ್ರ ಪ್ರವಿಶತಶ್ಚಾಪಿ ಕಲ್ಪಾಂತಘನಸನ್ನಿಭಾ ಅಟ್ಟಹಾಸಂ ವಿಮುಂಚಂತಿ ನಾರೀಕಾಪ್ಯುತ್ಥಿತಾ ಪುರಃ ಜಿಘಾಂಸಂತಿ ತತಸ್ತಾಂತು ಜಲದಗ್ನಿಶಿರೋರುಹಾಂ ಸವ್ಯಮುಷ್ಟಿಪ್ರಹಾರೇಣ ಪರಾಜಿತ್ಯಸುಭೈರವಾಂ ಪ್ರದೋಷಕಾಲೇ ಪ್ರವಿಶಂ ಭೇತಯಾಹಂ ತಯೋದಿತಃ ಅಹಂ ಲಂಕಾಪುರೀವೇರ ನಿರ್ಜಿತಾ ವಿಕ್ರಮೇಣ ತೇ ಯಸ್ಮಾತ್ ತಸ್ಮಾದ್ವಿಜೇತಾಸಿ ಸರ್ವರಕ್ಷಾಂಸ್ಯಶೇಷತಃ ತತ್ರಾಹಂ ಸರ್ವರಾತ್ರಂತು ವಿಚಿನ್ವನ್ ಜನಕಾತ್ಮಜಾಂ ರಾವಣಾಂತಃಪುರಗತೋ ನ ಚಾಪಶ್ಯಂ ಸುಮಧ್ಯಮಾಂ ತತಃಸೇತಾಮಪಶ್ಯಂಸ್ತು ರಾವಣಸ್ಯ ನಿವೇಶನೆ ಶೋಕಸಾಗರಮಾಸಾದ್ಯ ನಪಾರಮುಪಲಕ್ಷ್ಯ ಶೋಚತಾ ಚ ಮಯಾ ದೃಷ್ಟಂ ಪ್ರಾಕಾರೇಣ ಸಮಾವೃತಂ ಕಾಂಚನೇನ ವಿಕೃಷ್ಟೇನ ಗೃಹೋಪವನಮುತ್ತಮಂ ಸಪ್ರಾಕಾರಮವಪ್ಲುತ್ಯ ಪಶ್ಯಾಮಿ ಬಹುಪಾದಪಂ ಅಶೋಕವನಿಕಾ ಮಧ್ಯೆ ಸಿಂಸುಪಾ ಪಾದಪೋ ಮಹಾನ್ ತಮಾರುಹ್ಯ ಚ ಪಶ್ಯಾಮಿ ಕಾಂಚನಂ ಕದಲೀವನಂ ಅದೂರೇ ಸಿಂಸುಪಾ ವೃಕ್ಷಾತ್ ಪಶ್ಯಾಮಿ ವರವರ್ಣಿನೀಂ ಶ್ಯಾಮಾಂ ಕಮಲಪತ್ರಾಕ್ಷೀಂ ಉಪವಾಸ ಕೃಶಾನನಾಂ ತದೇಕವಾಸ ಸಂವೇತಾಂ ರಜೋಧ್ವಸ್ತ ಶಿರೋರುಹಾಂ ಶೋಕಸಂತಾಪದೇನಾಂಗೀಂ ಸೇತಾಂ ಭರ್ತೃಹಿತೇ ಸ್ಥಿತಾಂ ರಾಕ್ಷಸೀಭಿರ್ವಿರೂಪಾಭಿಃ ಕ್ರೋರಾಭಿರಭಿಸಂವೃತಾಂ ಮಾಂಸಶೋಣಿತಭಕ್ಷಾಭಿಃ ವ್ಯಾಘ್ರೀಭಿಃ ಹರಿಣೀಮಿವ ಸಾ ಮಯಾ ರಾಕ್ಷಸೀ ಮಧ್ಯೆ ತರ್ಜ್ಯಮಾನಾ ಮುಹುರ್ಮುಹುಃ ಏಕವೇಣೀಧರಾ ದೇನಾ ಭರ್ತೃಚಿಂತಾಪರಾಯಣಾ ಭೂಮಿಶಯ್ಯಾ ವಿವರ್ಣಾಂಗೀ ಪದ್ಮಿನೇವ ಹಿಮಾಗಮೇ ರಾವಣಾದ್ವಿನಿವೃತ್ತಾರ್ಥಾ ಮರ್ತವ್ಯಕೃತನಿಶ್ಚಯ ಕಥಂಚಿನ್ಮೃಗಶಾಪಾಕ್ಷಿ ತೋರ್ಣಮಾಸಾದಿತಾಮಯ ತಾನ್ ದೃಷ್ಟ್ವಾ ತಾದೃಶೀಂ ನಾರೀಂ ರಾಮಪತ್ನೀಂ ಯಶಸ್ವಿನೀಂ ತತ್ರೈವ ಸಿಂಸುಪಾ ವೃಕ್ಷೇ ಪಶ್ಯನ್ನಹಮವಸ್ಥಿತಃ ತತೋ ಹಲಹಲಾಶಬ್ದಂ ಕಾಂಚೀನೂಪುರಮಿಶ್ರಿತಂ ಶೃಣೋಮ್ಯಧಿಕಗಂಭೀರಂ ರಾವಣಸ್ಯ ನಿವೇಶನೆ ತತೋಹಂ ಪರಮೋದ್ವಿಗ್ರಹ ಸ್ವಂ ರೂಪಂ ಪ್ರತಿಸಂಹರನ್ ಅಹಂತು ಸಿಂಸುಪಾವೃಕ್ಷೇ ಪಕ್ಷೀವ ಗಹನೆ ಸ್ಥಿತಃ ತತೋ ರಾವಣದಾರಾಶ್ಚ ರಾವಣಶ್ಚ ಮಹಾಬಲಃ ತಂ ದೇಶಂ ಸಮನುಪ್ರಾಪ್ತಾ ಯತ್ರ ಸೇತಾಭವತ್ ಸ್ಥಿತಾ ತಂ ದೃಷ್ಟ್ವಾಥವರಾರೋಹ ಸೇತಾ ರಕ್ಷೋಗಣೇಶ್ವರಂ ಸಂಕುಚ್ಯೋರುಸ್ತನೋಪೇನೌ ಬಾಹುಭ್ಯಾಂ ಪರಿರಭ್ಯ ಚ ವಿತ್ರಸ್ತಾಂ ಪರಮೋದ್ವಿಗ್ನಾಂ ವೇಕ್ಷಮಾಣಾಂ ತತಸ್ತತಃ ತ್ರಾಣಂ ಕಿಂಚಿದಪಶ್ಯಂತೀಂ ವ್ಯಾಪಮಾನಾಂ ತಪಸ್ವಿನೀಂ ತಾಮುವಾಚ ದಶಗ್ರೀವಃ ಸೇತಾಂ ಪರಮದುಃಖಿತಾಂ ಅವಾಕ್ಷಿರಾಃ ಪ್ರಪತಿತೋ ಬಹುಮನ್ಯಸ್ವ ಮಾಮಿತಿ ಯದಿ ಚೇತ್ವಂತು ದರ್ಪಾನ್ ಮಾಂ ನಾಭಿನಂದಸಿ ಗರ್ವಿತೇ ದ್ವೌ ಮಾಸಾವಂತರಂ ಸೀತೆ ಪಾಸ್ಯಾಮಿ ರುಧಿರಂ ತವ एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः उवाच परमक्रुद्धा सीतावचनमुत्तमम् राक्षसाधमरामस्य भार्यामविदतेजसः इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च अवाच्यं वदतो जह्वाम् कथं न पतिता तव किं स्विद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ अपहृत्यागतः पाप तेनादृष्टो महात्मना न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे अजेयः सत्यवादी च रणश्लाघी च राघवः जानक्यापरुषं वाक्यम् एवमुक्तो दशाननः जिज्वालसहसा कोपात् चितास्थैव पावकः विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा स्त्रीणां मध्यात् समुत्पत्त्य तस्य भार्या दुरात्मनः वरा मन्दोदरी नाम तया सप्रतिषेधितः उक्तश्च मधुरां वाणीं तया समदनार्दितः सेतया तव किं कार्यं महेन्द्रसमविक्रम मया सह रमस्वार्य मद्विशिष्टा न जानकी देवगन्धर्वकन्याभिः यक्षकन्याभिरेव च सार्धं प्रभो रमस्वेह सेतया किं करिष्यसि ततस्ताभिः समेताभिः नारीभिः स महाबलः प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः सीतां निर्भर्त्सयामासुः वाक्यैः क्रोरैः सुदारुणैः तृणवद्भाषितं तासां गणयामास जानकी गर्जितञ्च तदा तासां सीतां प्राप्य निरर्थकं वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः रावणाय शशंसुस्ताः सीताध्यवसितं महत् ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः परिक्षिप्य समन्तात् तां निद्रावशमुपागताः तासु चैव प्रसुप्तासु सीता भर्तृहिते रता विलप्य करुणं देना प्रसुसोच सुदुःखिता तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् आत्मानं खादत क्षिप्रं न सीता विनशिष्यति जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च स्वप्नो हृद्य मया दृष्टो दारुणो रोमहर्षणः रक्षसाञ्च विनाशाय भर्तुरस्य जयाय च अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् अभियाचाम वैदेह्यम् एतद्धि मम रोचते यस्या ह्येवं व्यथःस्वप्नो दुःखितायाः प्रदृश्यते सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा अलमेषा परित्रातुम् राक्षस्यो महतो भयात् ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता अवोचद् यदि तत्तथ्यम् भवेयम् शरणं हि वः ताञ्चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशां चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः सम्भाषणार्थञ्च मया जानक्याश्चिन्तितो विधिः इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः श्रुत्वा तु गदितां वाचं राजर्षिगणपूजितां प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना कस्त्वं केन कथञ्चेह प्राप्तो वानरपुङ्गव काच रामेण ते प्रीतिः तन्मे शंसितुमर्हसि तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रवं वचः देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतं भर्त्राहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा इदञ्च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् अङ्गुलीयमभिज्ञानं 99 श्लोकं मळिदोत्नम् इदञ्च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् अङ्गुलीयमभिज्ञानं अदात् तुभ्यं यशस्विनि तदिच्छामि त्वया जप्तं देवि किं करवाण्यहं रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् एतत् श्रुत्वा विदित्वा च सीता जनकनन्दिनी आह रावणमुत्साद्य राघवो मां नयत्विति प्रणम्य शिरसा देवीम् अहम् आर्यामनिन्दिताम् राघवस्य मनोक्लादम् अभिज्ञानमयाचिषम् अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः मणिर्येन महाबाहु रामस्त्वां बहुमन्यते इत्युक्त्वा तु वरारोह मणिप्रवरमद्भुतम् प्रायच्छत् परमोद्विग्ना वाचा मां सन्दिदेशः ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः प्रदक्षिणं परिक्रामं इहाभ्युद्गतमानसः उक्तोऽहं पुनरेवेदं निश्चित्य मनसै मनसा तया हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे यथा श्रुत्वैव नचिरात् तावुभौ रामलक्ष्मणौ सुग्रीवसहितौ वेरौ उपेयातां तथा कुरु यद्यन्यथा भवेदेतत् द्वौ मासौ जीवितं मम न मां द्रक्ष्यति काकुत्सो म्रिये साहमनाथवत् तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत उत्तरञ्च मया दृष्टं कार्यशेषमनन्तरं ततो वर्धतमेकायः तदा पर्वतसन्निभः युद्धकाङ्क्षी वनन्तच्च विनाशयितुमारभे तद्भग्नं वनषण्डन्तु भ्रान्तत्रस्तमृगद्विजं प्रतिबुद्ध्य निरीक्षन्ते राक्षस्यो विकृताननाः मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ताः समभ्यागताः क्षिप्रं रावणायाच चक्षिदे राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना वानरेण ह्य विज्ञाय तव वीर्यं महाबल दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः तेषामसीति साहस्रं शूलमुद्गरपाणिनां मया तस्मिन् वनोद्देशे परिघेण निषूदितं तेषां तु हतशेषाये ते गत्वा लघुविक्रमाः निहतञ्च महत्सैन्यं रावणायाच चक्षिरे ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमं तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ललामभूतो लङ्कायाः स वै विध्वंसितो मया ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् राक्षसैः बहुभिः सार्धं घोररूपैः भयानकैः तमहं बलसम्पन्नं राक्षसं रणकोविदं परिघेणातिघोरेण सोदयामि सहानुगम् तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् पदातिबलसम्पन्नान् प्रेषयामास रावणः परिघेणैव तान् सर्वान् नयामि यमसादनं मन्त्रिपुत्रान् हतान् श्रुत्वा समरे लघुविक्रमान् पञ्चसेनाग्रगान् सोरान् प्रेषयामास रावणः तानहं सहसैन्यान् वै सर्वानेवाभ्यसोदयं ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलं बहुभिः राक्षसैः सार्धं प्रेषयामास रावणः तन्तुमन्दोदरीपुत्रं कुमारं रणपण्डितं सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् चर्माशिनं शतगुणं भ्रामयित्वा व्यपेषयं तमक्षमागतं भग्नं निशम्य स दशाननः तत इन्द्रजितन्नाम द्वितीयं रावणस्वतं व्याधिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदं तच्चाप्यहं बलं सर्वं तञ्च राक्षसपुङ्गवं नष्टौजसं रणे कृत्वा परं हर्षमुपागमं महतापि महाबाहुः प्रत्ययेन महाबलः प्रेषितो रावणेनैव सहवेरैः मदोत्कटैः सोविषह्यं हिमां बुद्ध्वा स्ववलं चावमर्दितं ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः रावणस्य समीपञ्च गृहीत्वा मामुपानयन् दृष्ट्वा सम्भाषितश्चाहम् रावणेन दुरात्मना पृष्टश्चलङ्कागमनम् राक्षसानाञ्च तम् वधम् तत्सर्वञ्च मया तत्र सीतार्थमिति जल् अस्याः सन्दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनम् विभो मारुतस्यौरसः पुत्रो वानरो हनुमानहम् रामदूतञ्च माम् विद्धि सुग्रीवसचिवम् कपिम् सोऽहम् दूत्येन रामस्य त्वत्सकाशमिहागतः शृणु चापि समादेशम् यदहम् प्रब्रवीमि ते राक्षसेश हरीशस्त्वाम् वाक्यमाह समाहितम् सुग्रीवश्च महातेजाः सत्वाम् कौशलमब्रवीत् धर्मार्थकामसहितम् हितम् पथ्यमुवाच च वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे राघवो रणविक्रान्तो मित्रत्वम् समुपागतः तेन मे कथितम् राज्ञा भार्या मे रक्षसा हृता तत्र साहाय्यमस्माकम् कार्यम् सर्वात्मना त्वया मया च कथितम् तस्मै वालिनश्च वधम् प्रति तत्र साहाय्य हेतोर्मे समयम् कर्तुमर्हसि वालिना हृतराज्येन सुग्रीवेण महाप्रभुः चक्रेऽग्निसाक्षिकम् सख्यम् राघवः सह लक्ष्मणः तेन वालिनमुत्पाट्य शिरेणैकेन संयुगे वानराणाम् महाराज कुरतः सप्लवताम् प्रभुः तस्य साहाय्यमस्माभिः कार्यम् सर्वात्मनात्विह तेन प्रस्थापितस्तुभ्यम् समीपमिह धर्मतः क्षिप्रमानीयताम् सीता दीयताम् राघवाय च यावन्नहरयो वेरा विधमन्ति बलम् तव वानराणाम् प्रभावो हि न केन विदितः पुरा देवतानाम् सकाशञ्च ये गच्छन्ति निमन्त्रिताः इति वानरराजस्त्वाम् आहेत्यभिहितो मया मामैक्षत ततः क्रुद्धः चक्षुषा प्रदहन्निव तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा मत्प्रभावमविज्ञाय रावणेन दुरात्मना ततो विभीषणो नाम तस्य भ्राता महामतिः तेन राक्षसराजोऽसौ याचितो मम कारणात् नैवम् राक्षसशार्दोल त्यज्यतामेष निश्चयः राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस दूतेन वेदितव्यञ्च यथार्थम् हितवादिना स्वमहत्यपराधेऽपि दूतस्यातुलविक्रम विरूपकरणम् दृष्टम् न वधोऽस्तीति शास्त्रतः विभीषणेनैव मुक्तो रावणः सन्दिदेशतान् राक्षसानेतदेवास्य लाङ्गोलम् दह्यतामिति ततस्तस्य वचः श्रुत्वा मम पुच्छम् समन्ततः वेष्टितम् शणवल्कैश्च जैर्णैः कार्पासजैः पटैः राक्षसाः सिद्धसन्नाहाः ततस्ते चण्डविक्रमाः तदादहन्त मे पुच्छम् निघ्नन्तः काष्ठमुष्टिभिः बद्धस्य बहुभिः पाशैः यन्त्रितस्य च राक्षसैः न मे पीडा भवत् काचित् दिदृक्षोः नगरीम् दिवा ततस्ते राक्षसासोरा बद्धम् मामग्निसंवृतम् अघोषयन् राजमार्गे नगरद्वारमागताः ततोऽहम् स्वमहद्रोपम् संक्षिप्य पुनरात्मनः विमोचयत्वा तम् बन्धम् प्रकृतिस्थः स्थितः पुनः आयसम् परिघम् गृह्य तानि रक्षांस्यसोदयम् ततस्तन्नगरद्वारम् वेगेनाप्लुतवानहम् पुच्छेन च प्रदीप्तेन ताम् पुरीम् साट्टगोपुराम् दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः विनष्टा जानकी व्यक्तम् न ह्यदग्धप्रदृश्यते लङ्कायाम् कश्चिदुद्देशः सर्वा भस्मीकृता पुरी दहता च मया लङ्का दग्धा सीता न संशयः रामस्य हि महत्कार्यम् मयेदम् व्यतथीकृतम् इति शोकसमाविष्टः चिन्तामहमुपागतः अथाहम् वाचमस्रौषम् चारणानाम् सुभाक्षराम् जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुताङ्गिरम् अदग्धा जानकीत्येवम् निमित्तैश्चोपलक्षिता दीप्यमाने तुलाङ्गूले नमां दहति पावकः हृदयञ्च प्रहृष्टं मे वातास्वरभिगन्धिनः तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ऋषिवाक्यैश्च सिद्धार्थैः अभवं हृष्टमानसः पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितं पन्थानमहमाक्रम्य भवतो दृष्टवानिह राघवस्य प्रभावेण भवताञ्चैव तेजसा सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितं एतत् सर्वं मया तत्र यथावदुपपादितं तत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्य सुन्दरकाण्डे अष्टपञ्चाशत् सर्गः अथ एकोनषष्टितमः सर्गः एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः भूयः समुपचक्राम वचनं वक्तुमुत्तरं सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः शेलमासाद्य सेताया मम च प्रवणं मनः आर्यायाः सदृशं शेलं सेतायाः प्लवगर्षभाः तपसा धारयेल्लोकान् क्रुद्धा वा निर्दयेदपि सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः तस्य तां स्पृशतो गात्रं तपसा न विनाशितं न तदग्निशिखा कुर्यात् तं स्पृष्टा पाणिना सती जनकस्यात्मजा कुर्यात् यत्क्रोधकलुषीकृता जाम्बवत्प्रमुखान् सर्वान् अनुज्ञाप्य महाहरीन् अस्मिन्नेवं गते कार्ये भवताञ्च निवेदिते न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीं तां लंकां तरसा हन्तुं रावणञ्च महाबलं किं पुनः सहितो वेरैः बलवद्भिः कृतात्मभिः कृतास्त्रैः प्लवगैः सोरैः भवद्भिर्विजयैषिभिः अहं तु रावणं युद्धे ससैन्यं सपुरःसरं सहपुत्रं वधिष्यामि सहोदरयुतं युधि ब्राह्ममयेन्द्रञ्च रौद्रञ्च वायव्यं वारुणं तथा यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् भवतामभ्यनुज्ञातो विक्रमो मे ऋणद्धितम् मया तुला विसृष्टा हि शैलवृष्टिः निरन्तरा देवानपि रणे हन्यात् किं पुनस्तान् निशाचरान् सागरोऽप्यति याद्वेलां मन्दरः प्रचलेदपि न जाम्बवन्तं समरे कम्पयेदरिवाहिनी सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः अलमेको विनाशाय वीरो वालिसुतः कपिः परसस्योरुवेगेन नीलस्य च महात्मनः मन्दरोऽप्यवशीर्येत किं पुनर्युधिराक्षसाः सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु मैन्दस्य प्रतियोद्धारं शंसतद्विविदस्य वा अस्य पुत्रौ महावेगौ एतौ प्लवगसत्तमौ एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे पितामहवरोत्सेकात् परमं दर्पमास्थितौ अमृतप्राशिनावेतौ सर्ववानरसत्तमौ अश्विनोः माननार्थं हि सर्वलोकपितामहः सर्वावध्यत्वमुतुलम् अनयोर्दत्तवान् पुरा वरोत्सेकेन मत्तौ च प्रमथ्य महतीं च मूं सुराणाममृतं वेरौ पेतवन्तौ प्लवङ्गमौ एतावेव हि संक्रुद्धौ सवाजिरथपुञ्जरां लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः मयैव निहता लङ्का दग्धा भस्मीकृता पुनः राजमार्गेषु सर्वत्र नामविश्रावितं मया जयत्यति बलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः अहम् कोसलराजस्य दासः पवनसंभवः हनुमानिति सर्वत्र नामविश्रावितम् मया अशोकवनिका मध्ये रावणस्य दुरात्मनः अथस्तात् शुंसुपावृक्षे साध्वी करुणमास्थिता राक्षसीभिः परिवृता शोकसंतापकर्षिता मेघलेखा परिवृता चन्द्रलेखेव निष्प्रभा अचिन्तयन्ती वैदेही रावणं बलदर्पितं पतिव्रता च शुश्रोणी अवस्तब्धा च जानकी अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा अनन्यचित्ता रामे च पौलोमीव पुरन्दरे तदेकवासः संवीता रजोध्वस्ता तथैव च शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः राक्षसीभिः विरूपाभिः दृष्टा हि प्रमदावने एकवेणीधरा देना भर्तृचिन्ता परायणा अधस्यया विवर्णाङ्गी पद्मिनीव हिमागमे रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया कथञ्चिन्मृगशाभाक्षी विश्वासमुपपादिता ततः सम्भाषिता चैव सर्वमर्थञ्च दर्शिता रामसुग्रीवसख्यञ्च श्रुत्वा प्रीतिमुपागता नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा यन्नहन्ति दशग्रीवम् स महात्मा कृतागसम् निमित्तमात्रम् रामस्तु वधे तस्य भविष्यति सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्षिता प्रतिपत्पाठशीलस्य विद्येव तनुताङ्गता एवमास्ते महाभागा सीता शोकपरायणा यदत्र प्रतिकर्तव्यम् तत्सर्वमुपपद्यताम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनषष्टितमः सर्गः अथ षष्टितमः सर्गः तस्य तद्वचनम् श्रुत्वा वालिसूनुरभाषत अयुक्तम् तु विना देवीम् दृष्टवद्भिश्च वानराः समीपम् गन्तुमस्माभिः राघवस्य महात्मनः वायुसूनोः बलेनैव दग्धा लङ्केति न श्रुतम् दृष्टा देवी न जानीता इति तत्र निवेदितुम् न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः न हि नः प्लवने कश्चित् नापि कश्चित् पराक्रमे तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः जित्वा लङ्काम् सरक्षौघाम् हत्वा तम् रावणम् रणे सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः तेष्वेवम् हतवीरेषु राक्षसेषु हनूमता किमन्यदत्र कर्तव्यम् गृहीत्वा यामजानकीम् रामलक्ष्मणयोर्मध्ये न्यस्यामजनकात्मजाम् किम् व्यलीकयिस्तु तान् सर्वान् वानरान् वानरर्षभान् वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान् राघवम् द्रष्टुमर्हामः सुग्रीवम् सह लक्ष्मणम् तमेवम् कृतसङ्कल्पम् जाम्बवान् हरिसत्तमः उवाच परमप्रीतो वाक्यमर्थवदर्थवित् नैषा बुद्धिर्महाबुद्धे यद्ब्रवीषि महाकपे विचेतुम् वयमाज्ञप्ता दक्षिणाम् दिशमुत्तमाम् नानेतुम् कपि राजेन नैव रामेण धीमता कथञ्चिन्निर्जिताम् सीताम् अस्माभिः नाभिरोचयेत् राघवो नृपशार्दूलः कुलम् व्यपदिशन् स्वकम् प्रतिज्ञाय स्वयम् राजा सीता विजयमग्रतः सर्वेषाम् कपि मुख्यानाम् कथम् मिथ्याकरिष्यति विफलम् कर्म च कृतम् भवेत् तुष्टिर्नतस्य च वृथा च दर्शितम् वीर्यम् भवेद्वानरपुङ्गवाः तस्माद्गच्छाम वै सर्वे यत्र रामः स लक्ष्मणः सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने न तावदेशामतिरक्षमानो यथा भवान् पश्यति राजपुत्र यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम्। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुंदरकांडे षष्टितमः सर्गः।